ಮಜ್ಜದುನ್ಮಜ್ಜ ಮನುಷ್ಯವೇಣಿ ತ್ರಯೋದಯೋ ಭಾಗ್ಯ ವಿವೇಕವೇಣಿ ವಿಮುಕ್ತ ಜನ್ಮ ವಿಭವೈಕವೇಣಿ ಶ್ರೀಮತ್ ಪ್ರಯಾಗೇ ಜಯತಿ ತ್ರಿವೇಣಿ ಸೌಂದರ್ಯವೇಣಿ ಸುರಸಾರ್ಧವೇಣಿ ಮಾಧುರ್ಯವೇಣಿ ಮಹನೀಯವೇಣಿ ರತ್ನೈಕವೇಣಿ ರಮಣೀಯವೇಣಿ ಶ್ರೀಮತ್ ಪ್ರಯಾಗೇ ಜಯತಿ ತ್ರಿವೇಣಿ ಐ ಮೇ ಪ್ರೇಯಾಂಸಃ ಸಖಾಯಃ ಮಹಾದಾನೈರ್ ಧ್ಯಾನೈರ್ ಬಹುವಿಧ ವಿತಾನೈರಪಿ ಚ ಘೋರಾಭಿಃ ಸುವಿಮಲ ತಪೋರಾಶಿಭಿರಪಿ ನಲಭ್ಯಂ ಪುಣ್ಯಂ ತೀರ್ಥರಾಜ ಪ್ರಯಾಗೇ ಸಕಲ ಸುರ ಸಂಸೇವ್ಯ ಸಲಿಲೆ ಸಮವಾಪ್ಯ ಗಂಗಾ ಯಮುನಾ ಸರಸ್ವತ್ಯಾಃ ತ್ರಿವೇಣಿ ಸಂಗಮೇ ಲಹರಿ ಲೀಲಾ ಕಲಕಲೇನ ಪ್ರಭಾತೆ ಸ್ನಾತೀನಾಂ ಕೃತ್ಸ್ನಾಂ ಬಂಧುಜನಾನಾಂ ಚ ಅಸ್ಮಿನ್ ಕಾರ್ಯಕ್ರಮೇ ಅಹಂ ನಿಧಿ ಝಾಃ ಪ್ರಣತಿ ಪುರಸ್ಸರಂ ಸ್ವಾಗತಂ ವ್ಯಾಚಷ್ಟೆ ಸಂಪ್ರತಿ ಕಾರ್ಯಕ್ರಮಾರಂಭೇ ಮಹಾಕುಂಭ ಸ್ನಾನ ಮಹಾತ್ಮ್ಯಂ ಪ್ರಕಟಯ್ಯ ಅಸ್ಮಾನ್ ತೋಷಯತಿ ಅಸ್ಮದೀಯ ಸಹಯೋಗಿನಿ ನಿಧಿ ತಿವಾರಿ
ಕುಂಭ ಪರಂಪರಾ ಪುಣ್ಯೇ ಆಸ್ಥಾಯುತೆ ಭಾರತವರ್ಷೆ ವೈದಿಕ ಕಾಲಾದೇವ ಅನವರತ ರೂಪೇಣ ಪ್ರವಾಹಮಾನ ವರ್ತತೆ ಕುಂಭಾನುಷ್ಠಾನಂ ಅಮೃತಸ್ನಾನಸ್ಯ ಅದ್ವಿತೀಯಂ ಶುಭಕರಂ ಮೋಕ್ಷಪ್ರದಾಯಕಂ ಚ ಪರ್ವ ವಿದ್ಯತೆ ಇದಂ ಹಿ ಪರ್ವ ಕುಂಭಪರ್ವ ಹರಿದ್ವಾರ ಉಜ್ಜಯನ ಪ್ರಯಾಗರಾಜ ನಾಸಿಕೇಷು ಪ್ರತಿಷ್ಠಿತಂ ವಿದ್ವದ್ಮನೀಷಿಭಿಃ ಕುಂಭಸ್ಯ ತಾತ್ಪರ್ಯಂ ಪುರುಷಾರ್ಥ ಚತುಷ್ಟಯಮಿತಿ ಪ್ರೋಕ್ತಂ ಅರ್ಥಾತ್ ಧರ್ಮಾರ್ಥ ಕಾಮಮೋಕ್ಷಾಣಾಂ ಪ್ರಾಪ್ತಿಃ ಮಹಾಕುಂಭಸ್ಯ ಪವಿತ್ರಾವಸರೆ ಪತಿತಪಾವನೀ ಭಗವತಿ ಭಾಗೀರಥೀ ಗಂಗಾನದ್ಯಾಃ ಜಲಾವಗಾಹನೇನ ಏಕಸಹಸ್ರಂ ಅಶ್ವಮೇಧಯಜ್ಞಾನಾಂ ಶತವಾಜಪೇಯಯಜ್ಞಾನಾಂ ಏಕಲಕ್ಷಂ ಯಾವಚ್ಚ ಭೂಮೇಃ ಪರಿಕ್ರಮಾಯಾಃ ಪುಣ್ಯಫಲಂ ಮಿಲಂತಿ ಯಥೋಕ್ತಂ ವರ್ತತೆ ಅಶ್ವಮೇಧಸಹಸ್ರಾಣಿ ವಾಜಪೇಯಶತಾನಿ ಚ ಲಕ್ಷಪ್ರದಕ್ಷಿಣಾ ಭೂಮೇಃ ಕುಂಭಸ್ನಾನೇನ ತತ್ಫಲಂ ಅಗ್ರೆ ಚ ತೀರ್ಥರಾಜೇ ಪ್ರಯಾಗರಾಜೇ ತ್ರಿವೇಣ್ಯಾಂ ಸಂಗಮೇ ಸ್ನಾನಮಹಿಮಾ ಏಕಾದೃಶೀ ವರ್ತತೆ ಯತ್ ಸಿತಾಸೀತೆ ತು ಯತ್ ಸ್ನಾನಂ ಮಾಘಮಾಸೆ ಯುಧಿಷ್ಠಿರ ನ ತೇಷಾಂ ಪುನರಾವೃತ್ತಿಃ ಕಲ್ಪಕೋಟಿಶತೈರಪಿ ಅರ್ಥಾತ್ ಕುಂಭಸಮಯೇ ಮಾಘಮಾಸೆ ತೀರ್ಥರಾಜ ಪ್ರಯಾಗೇ ಗಂಗಾ ಯಮುನಾ ಸರಸ್ವತಿ ನದೀನಾಂ ಸಂಗಮೇ ಯಃ ಮನುಷ್ಯಃ ಸ್ನಾನಂ ಕರೋತೀತಿ ತಾವತ್ ಸಹ ಶತಕಲ್ಪಾನಿ ಯಾವತ್ ಜನ್ಮಾದಿ ಬಂಧನ ಚಕ್ರೇ ನೈವ ಪ್ರವಿಶತಿ ಏತಾವದಸ್ತಿ ಮಹಾಕುಂಭಸ್ಯ ಸ್ನಾನಸ್ಯ ಮಹಿಮಾ ಧನ್ಯವಾದಃ
ಭೋಃ ಶ್ರೋತಾರಃ ಸಮಗ್ರಸ್ಯ ವಿಶ್ವಸ್ಯ ವಾರ್ತಾಂ ಸಂಪ್ರತಿಂ ಶ್ರಾವಯತಿ ಸುಷಮಾ ಕುಮಾರಿ
ಸಂಸದಃ ಆಯವ್ಯಯ ಪತ್ರಕ ಪ್ರಸ್ತುತೀಕರಣಾತ್ ಪ್ರಾಕ್ ಪ್ರಶಾಸನೇನ ನವದೆಹಲ್ಯಾಂ ಸರ್ವದಲೀಯೋಪವೇಶನಂ ಆಕಾರಿತಂ ಸತ್ರಮಿದಂ ಶನಿವಾಸರಂ ಪ್ರಾರಬ್ಧಂ ಜಾತಂ ಪ್ರಧಾನಮಂತ್ರಿ ನರೇಂದ್ರ ಮೋದಿ ಭಣಿತವಾನ್ ಯತ್ ರಾಷ್ಟ್ರೀಯ ಖನಿಜ್ ಮಿಷನ್ ಇತ್ಯಭಿಯಾನೆ ಕೇಂದ್ರೀಯ ಮಂತ್ರಿಮಂಡಲಸ್ಯ ನಿರ್ಣಯಃ ದೇಶೇ ಉಚ್ಚ ಪ್ರವಿಧಿ ಸ್ವಚ್ಛೋರ್ಜಾ ರಕ್ಷಾ ಅನ್ಯೇ ಪ್ರಮುಖೋದ್ಯೋಗಾಶ್ಚ ವರ್ಧಿಷ್ಯಂತಿ ಉತ್ತರ ಪ್ರದೇಶೇ ಮುಖ್ಯ ಸಚಿವಾಃ ಆರಕ್ಷಿ ಮಹಾನಿದೇಶಕಾಃ ಚ ಪ್ರಯಾಗರಾಜ ಮಹಾಕುಂಭ ಮಹೋತ್ಸವೇ ಸುರಕ್ಷಾ ವ್ಯವಸ್ಥಾಯಾಃ ಸಮೀಕ್ಷಾಂ ವಿಧಾಸ್ಯಂತಿ
ಸಂಪ್ರತಿ ಜ್ಞಾನ ವಿಜ್ಞಾನಮಿತಿ ಪ್ರಭಾಗಃ ಆರಭ್ಯತೆ ವಿದಂತ್ಯೇವ ಸರ್ವೇ ಯತ್ ಅತ್ರ ಕಶ್ಚಿತ್ ವಿಪಶ್ಚಿತ್ ಸ್ವ ಅನುಭವೇನ ಜ್ಞಾನ ಸಂಚಿಕಯಾ ಚ ಅಸ್ಮಭ್ಯಂ ಮಾರ್ಗದರ್ಶನಂ ವಿದಧಾತಿ ಅದ್ಯ ಅಸ್ಮಾಭಿಃ ಸಾಕಂ ಅಸ್ಮಿನ್ ಜ್ಞಾನ ವಿಜ್ಞಾನ ಇತ್ಯಾಖ್ಯೇ ಸಾಕ್ಷಾತ್ಕಾರ ಪ್ರಭಾಗೇ ಉಪಸ್ಥಿತೋ ವರ್ತತೆ ಡಾಕ್ಟರ್ ಪಂಕಜ್ ಝಾಃ ಮಹಾಭಾಗಃ ಅಸೌ ಪ್ರಸಿದ್ಧಃ ಸಂಸ್ಕೃತ ಕವಿಃ ಲೇಖಕಃ ಸಂಪಾದಕಃ ಹಿಂದಿ ಚಲಚಿತ್ರ ಗೀತಾನಾಂ ಸಂಸ್ಕೃತ ಅನುವಾದಕಃ ಶಿಕ್ಷಕಶ್ಚ ವರ್ತತೆ ಸಾಕ್ಷಾತ್ಕಾರಂ ಚ ಅಮುನಾ ಸಾಕಂ ಸಾಧಯತಿ ಅಸ್ಮದೀಯ ಸಹಯೋಗೀ ಡಾಕ್ಟರ್ ಯುವರಾಜಃ ಭಟ್ಟರಾಯಿ
ನಮೋ ನಮಃ ಪ್ರಿಯ ಶ್ರೋತಾರಃ ಅದ್ಯತನ ಸಂಸ್ಕೃತ ಸಾಪ್ತಾಹಿಕೀತಿ ಕಾರ್ಯಕ್ರಮೇ ಸಂಭಾಷಣಾರ್ಥಂ ಉಪಸ್ಥಿತಃ ವಿಶಿಷ್ಟಃ ಅತಿಥಿರಸ್ತಿ ಸಂಸ್ಕೃತ ಕಾವ್ಯ ಲೇಖನ ವ್ಯುತ್ಪನ್ನಃ ಸರ್ವಶ್ಲಾಘ್ಯ ಚರಿತಃ ನೈಕ ಸಂಸ್ಕೃತ ಕಾರ್ಯಕ್ರಮಾಣಾಂ ಶೋಭಾವರ್ಧಕಃ ಪಂಕಜ ಝಾ ಮಹೋದಯಃ ಕವಿವರ ಭೂಯೋ ಭೂಯೋ ನಮೋ ವಾಕಂ ಸ್ವಾಗತಂ ಚ ವ್ಯಾಹರಾಮಿ ಸಂಸ್ಕೃತ ಸಾಪ್ತಾಹಿಕೀ ಕಾರ್ಯಕ್ರಮೇ ಭವತಃ
ನಿತರಾಂ ಮೋದೆ ಕವಿವರ ಭವತಃ ಮಿತ್ರವರಸ್ಯ ಆಕಾಶವಾಣ್ಯಾಶ್ಚ ಅಭಿನಂದನಂ ಕರೋಮಿ
ಅಸ್ತು ಮಹೋದಯ भवान् खलु संस्कृत युवकवि, अतोऽहं ज्ञातुमिहे यत् भवतः कविरूपेण प्रतिष्ठायां प्रमुख प्रेरणाभूताः के सन्ति।
सोहनः प्रश्नः कृतः भवता। मदीय रचनायाः पृष्ठभूमौ सर्वप्रथमं वाचिक आधारस्तम्भरूपाः, मम संस्कृतसम्भाषणस्य वाचिक आधारस्तम्भरूपाः प्रोफेसर डाक्टर् अरविन्दकुमार तिवारी महोदयः,
एवम्
अथ च श्लोकरचनायाः स्तम्भरूपायमाणाः डाक्टर् नरेन्द्रकुमार ठक्कुर् महोदयः, अथ च मम काव्यशास्त्रस्य व्याकरणशास्त्रस्य च यत्र अहं पञ्चवर्षाणि उषित्वा येषां सन्निधाने सर्वं ग्रन्थादिकं तत्र अपठं, तत्र अस्मद्गुरुचरणाः प्रातःस्मरणीयाः प्रोफेसर डाक्टर् विष्णुकान्तझा वर्याः सन्ति।
एवम् अस्तु आचार्य, इमे खलु भवतां प्रेरणाभूताः आसन्। महोदय, भवतः रचनायां सङ्गीतस्य भूरि प्रभावः दृश्यते, अस्य का विशेषता वर्तते उत वा किं कारणं विद्यते, तद्विषये किमपि प्रतिपाद्यताम्?
अहं बाल्यकाले तत्र सामवेदम् अधीतवान्।
एवं
जी, तु मासद्वयमेव अधीतवान्, परन्तु सामवेद अध्ययनक्रमेव
एवं
मम कण्ठे कश्चन तादृशस्वरः आयातः,
एवं
येन कारणेन यथा कथञ्चिदपि अहं किमपि रचयामि वदामि वा तत्र स्वरयुक्तः भवति।
सत्यं,
तत्र प्रोफेसर जयप्रकाश द्विवेदी महाभागाः मम सामवेदाचार्याः सन्ति, तेषां सन्निधाने उषित्वा अहं सर्वम् अध्ययनं कृतवान्। तु तथा आरभ्य इदानीं यावत् यत्किमपि वदामि, यत्किमपि करोमि, तत्र स्वरः आयाति एव।
सङ्गीतस्य प्रभावः सामवेद खलु, सङ्गीतस्य मूलमपि वर्तते न इति कृत्वा। अस्तु, पङ्कज महोदय, काव्यलेखनस्य प्रारम्भिकसमये भवतः स्पर्धा कैः समकालिकैः संस्कृतकविभिः अवर्तत, उत वा अयं प्रश्नः एवं स्वीक्रियतां यत् भवतां समकालिकरचनाकाराणां मध्ये कीदृशं वातावरणम् अस्ति?
तत्र तु प्रारम्भिककाले सतीर्थ्याः एव आसन्।
एवं,
तत्र एवं भूताः तु कवयः नासन् यैः सह मम काचित् स्पर्धा तत्र अवर्तत इति।
छात्रावस्थायां
तु सतीर्थ्याः एव आसन्, यैः सह मिलित्वा छन्दसां तत्र अभ्यासक्रमे रचनां करोमि स्म। पुनः अत्रैव दिल्ली संस्कृतकादम्याः आयोज्यते स्म अखिलभारतीय नवोदित कविप्रतियोगिता,
एवम् एवं
तस्यै प्रतियोगितायै स्वकीयां रचनां प्रेषयामि स्म।
एवं,
तु कदाचित् तत्र सङ्ग्रहणं भवति स्म, कदाचित् एवमपि भवति स्म। तु प्रायः वर्षत्रयं चयनं न जातम्।
एवं,
वर्षत्रयानन्तरं प्रायः 2008 वर्षे मम प्रथमं चयनं जातं। तु तथा आरभ्य इदानीं पर्यन्तमपि प्रचलति, इदानीं तु
अस्तु। भवन्तः खलु समेषु काव्यगोष्ठीषु काव्यसम्मेलनेषु भवन्ति एव। अस्तु महोदय, एकदा तु भवता तत्र हिन्दी चलचित्रस्य गीतस्य धीरे धीरे मेरी जिन्दगी में आना इत्यस्य संस्कृतानुवादं यथा यथं सम्यक् गीत्वा भृशं लोकप्रियता प्राप्ता आसीत्, तद्विषये किमपि प्रतिपाद्यताम्?
जी, श्रीवैद्यनाथ संस्कृत पुस्तकालयः वर्तते झारखण्ड प्रदेशान्तर्गत,
एवं
देवघर मण्डलान्तर्गत एव।
एवं,
तत्र अहं ग्रीष्मावकाशे संस्कृत सम्भाषण शिविरं चालयामि।
एवं,
तु तत्र यदा पाठयामि स्म तु एकदा एकेन बालकेन उक्तं यत् केवलं या कुन्देन्दु तुषारहार धवला सदृशानि एव पद्यानि संस्कृतमयानि सन्ति वा, संस्कृते इतोपि किमपि वर्तते वा। तु अहम् अपृच्छं कीदृशं संस्कृतम् इच्छति भवान्। तु सः अवदत् तत्र किञ्चित् नावीन्यं भवेत्।
एवं,
तु कीदृक् नावीन्यं? तु तदा एतत् गीतं प्रचलत् आसीत्, धीरे धीरे से मेरी जिन्दगी में आना हनी सिंह इत्यस्य, तो तस्मिन् रैप अपि आसीत्। तो उक्तवान् एतादृशानां तत्र चलचित्रगीतानां यदि संस्कृतानुवादो भवेत्, संस्कृते एतादृशं गीतम् आगच्छेत्, तु अहं मन्ये यत् संस्कृते नावीन्यम् अस्ति इति। तु अहम् उक्तवान् यदि स्मरति चेत् तु गीतं गायतु। स गीतवान्, तदनन्तरं द्वादशकालाभ्यन्तरेव, 12 मिनिटाभ्यन्तरेव तस्य अनुवादं कृतवान्। पुनः रैप् तस्य स्मरणं नासीत्, अग्रिमे दिने रेप् इति श्रावितवान्। तु रेप् इत्यस्यापि मिनिटत्रयेण तत् कृतवान्। पुनः यूट्यूब् माध्यमेन, तत्र इन्स्टाग्राम् माध्यमेन, पुनः वाट्सप् माध्यमेन, तत्र सोशल् मीडिया प्रसारमाध्यमेन बहु
तस्य लोकप्रियता अतीव आसीत्।
इदानीं
न केवलं गीतस्यैव, अपि तु गीतेन संस्कृतस्य अपि मन्ये पुनरुज्जीवनं कृतमिति। तत्र अल्पमात्रायामेव स्यात्, परम् एकं यद् भवति भाष्यमाणं स्वरूपं तद्विषये।
संस्कृते नावीन्यं नास्ति इति मनसि निधाय केचन जनाः चलन्ति, तु तेषां जनानां कृते एतत् उत्तरम् आसीत्।
तर्हि तत्र किमपि श्राव्यतां ततः?
प्रतिपलं मम संस्मरणं स्मरणे मात्रं त्वम् हृदयस्य मां वार्तां कथयान्यहं कम् तव मम मम तव एक प्राणः किं कुर्याम् भ्रमाणि नृत्यानि गायानि लिखानि तव कृते किं कुर्याम् शनैः शनैः मम जीवने आगच्छ धीरे धीरे से दिल को चुराना।
बहु शोभनम्। अनेनापि संस्कृतस्य खलु लोकप्रियतावर्धनं जातम् आसीत्। अस्तु पङ्कजवर्य, सम्प्रति भवान् नैकेषां पुस्तकानां पत्रिकाणां च सम्पादने निरतोऽस्ति, सम्पादनस्य कमपि रोचकं प्रसङ्गं श्रावयतु। तावत्
रोचकं प्रसङ्गम् एतावदेव यत् अनेन तत्र सम्पादनकार्येण मम इदानीं किं कोशः वर्तते
एवं
पुनः मम वाचिकाद्यगुरुः तत्र डाक्टर् अरविन्दकुमार् तिवारीवर्यः यैः सह मम सम्पर्कः तत्र पिहितः आसीत्
एवं
प्रायः 15 वर्षाणि यावत्।
ओ एवं।
तु 15 वर्षाणि यावत् यदा एतद् गीतं प्रचलितं तदा केनचित् माध्यमेन मम दूरभाषक्रमाङ्कः तेषां पार्श्वे आगतः, तैः दूरभाषक्रमेण तत्र आकारितोऽहं। तु तदा दूरभाषामाध्यमेन नैव अस्माकं सम्पर्कः सञ्जातः। तदारभ्य इदानीं पर्यन्तं प्रायः 70-2000 वर्षादारभ्य इदानीं पर्यन्तं ते प्रेरणाभूताः एव सञ्जाताः। पुनः पत्रिकाणां तत्र विभिन्न नवीन अङ्कानां यथा अयनम् इति कृत्वा शारदायनं, रघुनाथायनम्, इदानीं महाकुम्भायनम् आगच्छति, हास्यायनम् आगमिष्यति, एतादृशं बहु किमपि आगच्छति। तु तेषां सन्निधाने उषित्वा इदानीं तस्मिन् कार्ये निरतः अस्मि।
अस्तु महोदय, अद्यतनसमये संस्कृतसाहित्यस्य यादृशी उपेक्षा जाजायते, एतत् साहित्यं केवलं विद्यालयेषु, विश्वविद्यालयेषु, अकादमीषु एव अल्परूपेण सीमितं जातमस्ति इति प्रतीयते। एतत् सर्वं निभाल्य भवान् संस्कृत अध्यापकत्वेन, कवित्वेन, सम्पादकत्वेन च किम् अनुभवति?
अहम् एतदेव अनुभवामि। इदानीं किमस्ति, पठनं बहु अल्पं जातम्
एवं
पठनम् इच्छन्ति एव न जनाः
एवं
तत्र केवलम् अल्पेनैव माध्यमेन कथम् अहम् अग्रे आगच्छेयम् इत्यस्मिन् तत्र क्रमे एव तेषां ध्यानं भवति
एवं
तु अत्र किं केवलं विश्वविद्यालयेषु, अकादमीषु, पुस्तकालयेषु वा यादृशम् अध्ययनं सीमितं जातं तस्य सीम्नः पारे तत्र गच्छेयुः जनाः। एतदर्थं नावीन्येन यथा गीतेन, यथा नवीन नवीन तत्र छन्दसा, यथा गलज्जलिका, गजल् इति भवति, तादृक् किमपि अत्रापि तत्र आनयामश्चेत् तु नूनमेव अग्रे वयं वर्धिष्यामः इति।
अस्तु महोदय, संस्कृतभाषासाहित्यस्य अध्ययने भवान् विशेषं बलं ददाति, यथा अधुनैव भवद्भिः प्रोक्तं पठने अस्माकं रुचिः अल्पा जाता अस्ति, केनापि माध्यमेन पल्लवग्राही पाण्डित्येन वयम् अग्रे गच्छामः इति चिन्तयामः। तर्हि उत्तमकाव्यरचनार्थं प्राचीनसंस्कृतसाहित्य अध्ययनम् अनिवार्यं कथम्? अद्यत्वे विशेषतः युववर्गः संस्कृतसाहित्यस्य तथाविधं योजनं नैव इच्छति, यथाविधं पुरातनपीठिकायाः जनाः संयुक्तासन्। किम् अद्यतनरचनाः तादृश्यो बलवत्यो न सन्ति?
बलवत्यः तु सन्त्येव। किमस्ति, पातञ्जलमहाभाष्ये उक्तं वर्तते, वेदम् अधीत्य त्वरिता वक्तारो भवन्ति
एवं।
तु यथा बालकाः वटुकाश्च वेदमेव किञ्चित् स्वल्पम् अधीत्य त्वरिता वक्तारः एतस्मादेव, यतोहि मन्त्राणां तत्र अनुसन्धानं भवति तेषां काये, तु तत्र त्वरिता वक्तारः भवन्ति। तादृगेव इदानीं यूट्यूब् माध्यमेन वा सोशल् मीडिया माध्यमेन यत्किमपि प्रचलति सर्वे जानन्ति एव, तन्माध्यमेन जनाः बालकाः पठन्तः एव बालकाः इच्छन्ति यद् मम नाम तत्र यथा आचार्याणां तत्र रमाकान्तशुक्लवर्याणाम् अस्ति, यथा तत्र स्थापिताचार्याणां वर्तते, यथा यशांसि, तथा मम अपि भवेदिति, तु इति धिया यदि कार्यं कुर्वन्ति तदा एतेषां पठनं न भवति। बलवत्यः तदा एव रचनाः भविष्यन्ति यदा पुरातन तत्र पाठ्यक्रमाणां पाठ्यक्रमे अनुगतानां ग्रन्थानाम् अध्ययनं सम्यक्तया भवेत्।
सत्यं।
गुरूणां सन्निधाने उषित्वा ग्रन्थानाम् एकैकशः पङ्क्तीनां तत्र परिशीलनं भवेत्।
अस्तु,
तदा एव एतादृशं किमपि कार्यं भवितुम् अर्हति।
अस्तु, तर्हि भवताम् अधुनापि अत्र बलं भवद्भिः दीयते यत् पठनमेव कुर्वन्तु इति संस्कृतस्य। महोदय, भवता सम्भाषणार्थं नैजः समयः कल्पितः, एतदर्थं भवते भूयांशु धन्यवादः। पुनः सौभाग्यं चेत् दर्शनम् अवश्यं भविष्यति इति कामयामानो विरमामि, प्रणमामि च।
नूनं भविष्यति एव महोदयः। भवते युवकवये, मित्रमणये, आकाशवाणीदलाय, श्रोतृजनेभ्यः च सन्तु मे शुभकामाः। वर्धन्ताम् संस्कृत कार्यक्रमस्य श्रोतारः अभिवर्धन्ताम् संस्कृत भाषा भाषिणो जनाः नमो नमः
धन्यवादाः
अधुना वयम् संस्कृत दिग्दर्शन प्रभागे वर्तामहे विदितमेव यत् संस्कृत भाषा अति प्राचीनतमा परम्परा च इयम् हि भाषा प्रतियुगम् नव नवमात्मानम् प्रस्फुरति समाविष्करोति च इत्यतः सदैव अत्र नूतनाः विचाराः विद्यन्ते एव संस्कृत जगति जातानि कृत्स्नानि कार्याणि अत्र कथयामि अस्माद्वर्षात् आरभ्य संसदि संस्कृत भाषायामपि युगपद् भाषान्तरणम् आरभते यत् पूर्वं केवलं दशभाषासु भवति स्म संस्कृत भाषा संवर्धनाय पोषणाय च प्रयासोऽयं श्लाघनीयः वर्षस्यास्य अर्थसंकल्पना सत्रं संस्कृत भाषायां ये संस्कृतानुरागिणः श्रोतुकामाः सन्ति ते संसद् दूरदर्शन वाहिन्यां श्रोतुं प्रभवन्ति बालाः सर्वदा सरलस्वान्ताः नूतन विचारोन्मुखाः भवन्ति अतः संस्कृत भाषायां रुचेः ज्ञानस्य च संवर्धनाय बाल मनोहारीभिः प्रहेलिकाभिः उपस्थिता विद्यते निधिः तिवारी
प्रियाः बालाः अद्य अहं प्रहेलिकाद्वयं भवद्भिः पृच्छामि तावत् वदतु रेफ आदौ मकारोऽन्ते वाल्मीकिर्यस्य गायकः सर्वश्रेष्ठं यस्य राज्यं वद कोऽसौ जनप्रियः वदतु आम् सम्यक् सः श्रीरामः अपरत्र द्वितीया प्रहेलिका अस्ति मेघश्यामोऽस्मि नो कृष्णो महाकायो न पर्वतः बलिष्ठोऽस्मि न भीमोऽस्मि कोऽस्म्यहम् नासिकाकरः वदतु बालाः सः कः अस्तु अहं वदामि सः गजः अस्तु बालाः पुनर्मिलामः धन्यवादाः नमो नमः
इदानीं संस्कृतजनन्याः सेवार्थं भाषाज्ञानमेव प्राथमिकं सोपानमिति विचिन्त्य संस्कृत हिन्दी राजस्थानी भाषानुवादैः अत्र स्वम् उपस्थापयति मुदिता वेतालः
प्रथमं वाक्यमस्ति आयुर्वेदः प्राचीनतमा भारतीया चिकित्सा पद्धतिः विद्यते पहला वाक्य है आयुर्वेद प्राचीनतम भारतीय चिकित्सा पद्धति है राजस्थानी में आयुर्वेद भारत री पुरानी चिकित्सा पद्धति है द्वितीयं वाक्यमस्ति आचार्यौ चरक सुश्रुतौ प्रसिद्धौ आयुर्वेद वैद्यौ आस्ताम दूसरा वाक्य है आचार्य चरक और सुश्रुत आयुर्वेद के प्रसिद्ध वैद्य थे राजस्थानी में इनरा प्रसिद्ध वैद्य आचार्य चरक और सुश्रुत हा तृतीयं वाक्यमस्ति आचार्यः सुश्रुतः शल्य चिकित्सायाः प्रवर्तको विद्यते तीसरा वाक्य है आचार्य सुश्रुत शल्य चिकित्सा के जनक कहलाते हैं राजस्थानी में आचार्य सुश्रुत शल्य चिकित्सा रा जनक हा
प्रेयांसाः मे आवकाः विविद्मो वयम् वाग व्यापारस्यास्य चरमे क्षणे अतीव बृहदाकारे परितो खंड मंडले चमत्कृतीन्द्रागारे तपोक्षेत्रे भारते श्रीमत् प्रयागे शुंभमाने महाकुंभे भक्ता भयत्राण सुबद्ध सलिले निमज्ज दुन्मज्जनेन मनुष्य कृत पापानि क्षीयन्ते रोगम क्षोकम तापम पापम हरति च तज्जलम कुमति कलापञ्च त्रिभुवन सारे वसुधा हारे तीर्थोदकं गति ही खलु संसारे अस्मिन् पुण्ये अहनि समेपि पुविशीरन इति कामये अस्य कार्यक्रमस्य विषये तत्र भवतां प्रतिपुष्टिः अस्मभ्यं प्रोत्साहकः भवति अतः nsdsanskrit@gmail.com संकेते स्वाभिप्रायं प्रकटय्य अस्मान् उपकुर्वन्तु इति ब्रुवाणा पुनः नूतनांके नूतनांशैः मेलनं विज्ञापयति पुनरपि धन्यता कुसुमानि आविष्कुर्वति अहं निधि झाः विरमामि जयतु संस्कृतं जयतु भारतम् Thank you.